अथ अष्टम स्कंध अथ नवमोध्याय मोहिनी रूप से भगवान के द्वारा अमृत बांटा जाना। श्री शुक उवाच तेन्यन्यतोऽसुरा पात्रम हरन्तस्त्यक्त सहृदः क्षिपन्तो दस्य धर्मण आयान्तिम ददृशुः स्त्रियम् अहो रूपमहो धाम अहो अश्या नवम वयः इति ते तामभिद्रुत्य पप्रच्छुर्जात हृच्छयः का त्वं कञ्जपला साक्षी कुतो वा किं चिकीर्षसि कस्याशि बद्वामोरु मत्नन्तीव मनांसिनः न वयं त्वामरैर्दैत्यै सिद्धगन्धर्वचारणैः न स्पृष्टपूर्वं जानीमो लोकेशैश्च कुतो नृभिः नूनं त्वं विधिना शुभ्रुः प्रेषितासि शरीरिणाम् सर्वेन्द्रियमनः प्रीतिं विधातुं स घृणेन किम् सा त्वं न स्पर्धमानानाम् एकवस्तूनि मानिनि ज्ञातीनां बद्धवैराणां संविधत्स्व सुमध्यमे वयं कश्यप दायादा भ्रातरः कृतपौरुषः विभजस्व यथा न्यायं नैव भेदो यथा भवेत् इत्युपामन्त्रितो दैत्यैर्माया योषित वपुर्हरिः प्रहस्य रुचिरापाङ्गैर्निरीक्षानिदमब्रवीत् श्रीभगवान् उवाच कथं कश्यप दायादः पुंसल्यां मयि सङ्गतः विश्वासं पण्डितो जातु कामिनी सुनजातिः शालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः सख्यानाहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् श्रीशुक उवाच इति ते च्छेलितैस्तस्य आश्वस्तमनसोऽसुरः जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ततो गृहीत्वा मृतभाजनं हरिर्बभास ईषत्स्मितशोभया गिरा यदभ्युपेतं क्वच साध्वसाध्वा कृतं मया वो विभजे सुधामिमाम् इत्यभिव्याहृतं तस्य आकर्ण्यासुरपुङ्गवः अप्रमाणविदस्तस्य तत्तथ्येत्यन्वमंसत अथोपोष्यकृतस्नाना हुत्वा च हविषानलम् दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्तेन द्विजैः यथोपजोषं वासांसि परिधाया हतानि ते कुशेषु प्राविशन् सर्वे प्रागग्रे स्वविभूषिताः प्राङ्मुखेषुपविष्टेषु सुरेषु द्वितीयेषु च धूपामोदितशालायां जुष्टायां माल्यदीपकैः तस्यां नरेन्द्रकरभोरुलुसद्कूल श्रोणी तटालसगतिर्मदबिह्वलाक्षी सा कूजति कनकनूपुरसिञ्जितेन कुम्भस्तनि कलशपाणिरथा विवेश तां श्रीसखीं कनककुण्डलचारुकर्ण नासा कपोलवदनां परदेवताख्यां संवीक्ष्य सम्मुहुरुस्मितवीक्षणेन देवासुरा विगलितस्तनपट्टिकान्ताम् असुराणां सुधादानं सर्पाणामिव दुर्नयं मत्वा जातिनिशंसानां नातां व्यभजदच्युतः कल्पयित्वा पृथक् पङ्क्तिरुभयेषां जगत्पतिः तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु दैत्यान् गृहीत कलशो वञ्चयन्नुपसञ्चरैः दुरस्थान् पाययामास जरा मृत्युहरां सुधाम् ते पालयन्तः समयम् असुराः स्वकृतम् नृप तुष्णीमासन् कृतस्नेहा स्त्रीविवादजुगुप्सया तस्याम् कृतातिप्रणयः प्रणयापायकातरः बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् देवलिङ्ग प्रतिच्छन्न स्वर्भानुर्देव संसदि प्रविष्टः सोमम् अपि चन्द्रार्काभ्याम् च सूचितः चक्रेण क्षुरधारेण जहार पिबतः शिरः हरिस्तस्य कबन्धस्तु सुधया प्लावितोपतत् शिरस्त्वमर्ताम् नीतम् अजो ग्रहम् अचिक्लिपत् यस्तु पर्वणि चन्द्रार्कौ अभिधावति वैरधे पीतप्राये मृते देवैर्भगवान् लोकभावनः पश्यताम् असुरेन्द्राणाम् स्वम् रूपम् जगृहे हरिः एवम् सुरासुरगणः शमदेशकाल हेत्वार्थ कर्म मतयोऽपि फले विकल्पः तत्रामृतम् सुरगणः फलमञ्जसापुर्जत्पादपङ्कजरजः श्रेणान्न दैत्यः यद्युज्यते सुवसुकर्म मनोवचो भी देहात्मजादिषु निर्भिस्तदसत् पृथक्त्वात् तैरेव सद्भवति यत्क्रियते पृथक्त्वात् सर्वस्य तद्भवति मूल निषेचनम् यत्। इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् अष्टमस्कन्धे अमृतमथने नवमोऽध्यायः।